हस्ताय नमः परशुधारिणे नमस्ते शुणिहस्ताय नाभिशेषाय ते नमः अनामयाय सर्वाय सर्वपूज्याय ते नमः सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च तं प्रणेमतुः तावुत्थाप्य गणादेश उवाच तौ महेश्वरौ श्रीगणेश उवाच सौख्यस्य पठते शृण्वते पदम् भुक्ति मुक्ति प्रदौ चैव पुत्र पौत्रादिकं तथा धनधान्यादिकं सर्वं लभते तेन निश्चितम्
धनधान्यादिकं सर्वं लभते तेन निश्चितम् धनधान्या कं सर्वं लभते तेन निश्चितम्
इति शक्ति शिवकृतं गणाधीशस्तोत्रम्।